ॐ अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीसुब्रह्मण्यो देवता ॐ नम इति बीजम् भगवत इति शक्तिः सुब्रह्मण्यायेति कीलकम् श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ नमः हृदयाय नमः भगवते शिरसे स्वाहा सुब्रह्मण्याय शिखायै वषट् ॐ नमः कवचाय हुम् भगवते नेत्राभ्याम् भौषट् सुब्रह्मण्याय अस्त्राय भट् इति दिग्बन्धः ध्यानम् सिन्दूरारुणमिन्दुकान्तिवदनम् केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुम् स्वर्गादिसौख्यप्रदम् अम्भोजाभयशक्तिकुक्कुटधरम् रक्ताङ्गराजोज्ज्वलम् सुब्रह्मण्यमुपास्महे प्रणमताम् भीतिप्रणाशोद्यतम् ॐ सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः गुहो मां दक्षिणे पातु वह्निजः पातु वामतः शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् मुखम् मे षण्मुखः पातु नासिकाम् शङ्करात्मजः ओष्ठौ वल्लीपतिः पातु जिह्वाम् पातु षडाननः देवसेनापतिर्दन्तान् चुबुकम् बहुलात्मजः कण्ठम् तारकजित् पातु बाहुद्वादशबाहुमान् हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः हृदयम् वह्निभोः पातु कुक्षिम् पात्वम्बिकासुतः नाभिम् शम्भुसुतः पातु कटिम् पातु हरात्मजः ऊरु पातु गजारूढः जानो मे जाह्नवी सुतः जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः सर्वाण्यङ्गानि भूतेशः सर्वधातुंश्च पावकिः सन्ध्याकाले निशीथिन्याम् दिवा प्रातर्जलेऽग्निषु दुर्गमे च महारण्ये राजद्वारे महाभये तुमुलेरणमध्ये च सर्पदुष्टमृगादिषु चोरादिसाध्वसे भेद्ये ज्वरादिव्याधिपीडने दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्ध्रकृत् यः सुब्रह्मण्यकवचम् इष्टसिद्धिप्रदम् पठेत् तस्य तापत्रयम् नास्ति सत्यम् सत्यम् वदाम्यहम् धर्मार्थी लभते धर्मम् अर्थार्थी चार्थमाप्नुयात् कामार्थी लभते कामम् मोक्षार्थी मोक्षमाप्नुयात्।